दीक्षार्थमक्षित्रितयम् येष
पञ्चामृतैर्गन्धसुधूपदीपै विचित्रपुष्पैर्विधैश्च मन्त्रै अन्नप्रकारैः सकलोपचारैः सम्पूजितं सोममहं नमामि।